जनकस्य वचः श्रुत्वा विश्वामित्रः महामुनिः धनुः दर्शय रामाय इति ह उवाच पार्थिवम्। ततः सः राजा जनकः सचिवान् वि आदिदेश ह धनुः आनीयताम् दिव्यम् गंधमाल्य अनुलेपितम् जनकेन समादिष्टाः सचिवाः प्रअविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुः अमित ओजसः नृणाम् शतानि पञ्चाशद् व्यायतानाम् महाआत्मनाम् मञ्जूषाम् अश्वचक्राम् ताम् समूहुः ते कथञ्चन ताम् आदाय सुमञ्जूषाम् आयसीम् यत्र तद् धनुः सुर उपमम् ते जनकम् ऊचुः नृपतिमन्त्रिणः। इदम् धनुः वरम् राजन् पूजितम् सर्वराजभिः मिथिला अधिप राज इन्द्र दर्शनीयम् यद् इच्छसि तेषाम् नृपः वचः श्रुत्वा कृत अञ्जलिः अभाषत विश्वामित्रम् महाआत्मानम् तौ उभौ रामलक्ष्मणौ। इदम् धनुः वरम् ब्रह्मन् जनकैः अभिपूजितम् राजभिः च महावीर्यैः अशक्तैः पूरितुम् तदा। न एतत् सुरगणाः सर्वे स असुराः न च राक्षसाः गन्धर्वयक्षप्रवराः सकिन्नरमहा उरगाः वगतिः मानुषाणाम् च धनुषः अस्य प्रपूरणे आरोपणे समायोगे वेपने तोलने तथा तद् एतद् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुङ्गव दर्शय एतत् महाभाग अनयोः राजपुत्रयोः विश्वामित्रः स रामः तु श्रुत्वा जनकभाषितम् वत्स राम धनुः पश्य इति राघवम् अब्रवीत्। महर्षिवचनात् रामः यत्र तिष्ठति तद् धनुः मञ्जूषां ताम् अप आवृत्य दृष्ट्वा धनुः अथ अब्रवीत् इदं धनुः वरं दिव्यं संस्पृशामि इह पाणिना यत्नवान् च भविष्यामि तोलने पूरणे अपि वा बाढ़म इति अब्रवीद राजा मुनिः च सम अभाषत लीलया सह धनुः मध्ये जग्राह वचनात् मुनिः पृष्यताम् निसहस्राणाम् बहूनाम् रघुनन्दनः आरोपयत् सः धर्म आत्मा सलीलम् इव तद् धनुः आरोपयित्वा मौर्वीं च पूरयामास तद् धनुः तद् बभञ्ज धनुः मध्ये नरश्रेष्ठः महायशः तस्य शब्दः महान् आसीत् निर्घातसमनिःस्वनः भूमिकम्पः च सुमहान् पर्वतस्य इव दीर्यतः निपेतुः च नरः सर्वे तेन शब्देन मोहितः वर्जयित्वा मुनिवरं राजानं तौ च राघवौ प्रति आश्वस्ते जने तस्मिन् राजा विगत साध्वसः वाच प्राञ्जलिः वाक्यं वाक्यज्ञः मुनिपुङ्गव भगवन् दृष्टवीर्यः मे रामः दशरथ आत्मजः अति अद्भुतम् अचिन्त्यम् च अतर्कितम् इदम् मया जनकानां कुले कीर्तिम् आहरिष्यति मे सुता सीता भर्तारम् आसाद्य रामं दशरथ आत्मजं मम सत्या प्रतिज्ञा सा वीर्यशुल्का इति कौशिक सीता प्राणैः बहुमता देया रामाय मे सुता भवतः अनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः मम कौशिक भद्रं ते अयोध्यां त्वरिताः रथैः राजानं प्रश्रितैः वाक्यैः आनयन्तु पुरं मम प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै प्रीतियुक्तं तु राजानम् आनयन्तु सुशीघ्रगः। कौशिकः तु तथा इति आह राजा च आभाष्य मन्त्रिणः अयोध्यां प्रेषयामास धर्म आत्मा कृतशासनान्। यथावृत्तं समाख्यातुम् आनेतुं च नृपं तथा इति आर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकण्डे सप्तषष्टितमः सर्गः।